सुराहय ग्रीव महासुरेण षष्टान्तरान्त्यो ददकाण्डकल्पे निद्रोन्मुख ब्रह्म मुखादृतेषु वेदेष्वधित्स किल मत्स्यरूपः सत्यो व्रतस्य द्रमिलादिभर्तुर्नदी जले तर्पयतस्तदानीम् कराञ्जलौ सञ्ज्वलिताकृति स्वम् अदृश्यताः कश्चन बालमीनः श्रुतम् जले त्वाम् चकितम् विलोक्य निन्येऽम्बुपात्रेण मुनिः स्वगेहम् स्वल्पैरहोभिः कलशीम् च कूपौ वापीम् सरश्चानशिषे विभो त्वौ योगप्रभावाद्भवदाग्नियैव नीतस्ततस्त्वम् मुनिनापयोधिम् पृष्टो मुना कल्पदि दृक्षुमेणम् सप्ताहमास्वेति वदन्नयासीः प्राप्ते त्वदुक्ते हनिवारिदारः परिप्लुते भूमितले मुनीन्द्रः सप्तशिभिः सार्धमपारवारिम् उद्गूर्णमानः शरणम् ययौ त्वागा धरान् त्वदादेशकरीमवाप्ताम् नौ रूपिणीमारुरुहुस्तदा ते तत्कम्पकम् प्रेषु च तेषु भूयस्त्वमम्बुदेराविरभूमहीयान् जशाकृतिम् योजन लक्ष्य दीर्घाम् ददा नमुश्चैस्तर तेजसम् त्वम् निरीक्ष्य तुष्टा मुनयस्त्वदृत्यः त्वत्तुङ्गशृङ्गे तरणिम् बबन्धुः आकृष्टनौः मुनिमण्डलाय प्रदर्शयन् विश्वजगद्विभागान् संसूह्य महानो निवरेण तेन ज्ञानम् परौ चोपदिशम् न चारिः कल्पावधौ सप्त मुनीन् पुरोवत् प्रस्ताप्य सत्यौ गतभूमिपङ्क्तौ वैवस्वताख्यम् मनुमादधानः क्रोदाथय ग्रीवमभिद्रुतो भूः स्वतुङ्गशृङ्गच्छतवक्षसन्तौ निपात्य दैत्यम् निगमान् गृहीत्वा विरिञ्चये प्रीतहृदे ददानः प्रपञ्चनागारपते प्रपायाः